ॐ अफाष्टादशोऽध्यायः अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् त्यागस्य च हर्षीकेश पृथक् केशे निषूदन श्रीभगवान् उवाच काम्यानां कर्मणानां न्यासं सन्न्यासं कवयो विदुः सर्वकरफलत्यागं प्राहुस्त्यागं विचक्षणाः त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति चापरे निश्चयं शृणु मे तत्र त्यागे भरत्सत्तम त्यागो हि पुरुष व्याघ्र त्रिविधा सम्प्रकीर्तितः यज्ञदानतपः कर्म न त्याज्यम् कार्यमेव तत् यज्ञो तपो दानं तपश्चैव पावनानि मनीषिणाम् एतन्यापि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानिति मे पार्थ निश्चितं मतम् उत्तमम् नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहात्तस्य परित्यागस्तामसाः परिकीर्तितः दुःखम् इत्येव यत् कर्म कायक्लेशभयात् त्यजेत् सा कृत्वा राजसं त्यागम् नैव त्यागफलं लभेत् कार्यमित्येव यत् कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं चैव सा त्यागः सात्विको मतः न द्वेष्ट्य कुशलं कर्म कुशलेनानुसज्जते त्यागी सत्त्वसमाविष्टो मेधावी सिञ्चिन्न संशयः न हि देवव्रता शक्यं त्यक्तुं कर्माण्यशेषतः यस्तु करफलत्यागी सा त्यागीत्यभिधीयते अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवत्यागीनां प्रेत्य न तु सन्न्यासिनां क्वचित् पञ्चैतानि महाबाहो कारणानि निबोध मे साङ्ख्यकृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् शरीरवाङ्मनो भेर्यत् कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः पश्यत्यकृद्बुद्धेत्वान्न सा पश्यते दुर्मतिः यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ज्ञानं ज्ञेयं परे ज्ञाता त्रिविधा कर्म चोदना करणं कर्म कर्तेति त्रिविधः कर्म संग्रह ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसाम् यत्तु कृत्सन्वदे कस्मिन् कार्ये सक्तं महेतुकम् అతత్వార్థవదల్పం చ తత్తామసం ఉదాహృతం నియతం సంగరహితం అరాగద్వేషతః కృతం అఫలప్రేప్సునా కర్మ యత్తత్ సాత్వికం ముచ్యతే యత్తు కామేప్సునా కర్మ సాహంకారేణ వా పునః క్రియతే బహుళాయాసం తద్రాజసం ఉదాహృతం అనుబంధం క్షయం హింసాం అనవీక్ష్య చ పౌరుషం మోహాదారభ్యతే కర్మ యత్తత్ తామసం ఉచ్యతే ముక్త సంగో అనహం వాదీ ధృత్యుత్సాహ సమన్వితః సిద్ధ్య సిద్ధయోర్ నిర్వికారః కర్తా సాత్వేకుచ్యతే రాగీ కర్ఫల్ ప్రేప్సుర్ లుబ్ధో హింసాత్మకో అశుచిః హర్ష శోకాన్వితః కర్తా రాజసః పరికీర్తితః అయుక్తః ప్రాకృతః స్తబ్ధః షఠో నైష్కృతికోలసః విషాదీ దీర్ఘసూత్రీ చ కర్తా తామసుచ్యతే బుద్ధేర్భేదం ధృతేశ్చైవ గుణతస్త్రివేధం శృణు ప్రోచ్యమానమశేషేణ పృథక్త్వేన ధనంజయ ప్రవృత్తిం చ నివృత్తిం చ కార్యాకార్యే భయాభయే బంధం మోక్షం చయ వేత్తి బుద్ధిః సపార్థ సాత్వికీ యయా ధర్మమధర్మం చ కార్యం చ కార్యమేవ చ అయథావత్ ప్రజానాతి బుద్ధిః సపార్థ రాజసీ అధర్మం ధర్మమితి యా మన్యతే తాం సావృతా సర్వార్థాన్ విపరీతాంశ్చ బుద్ధిః సపార్థ తామసీ ధృత్యాయయా ధార్యతే మనః ప్రాణేంద్రియ క్రియాః యోగేనా వ్యభిచారిణ్యా ధృతిః సపార్థ సాత్వికీ యయా తు ధర్మకామార్థాన్ ధృత్యా ధార్యతేర్జున ప్రసంగేన ఫలాకాంక్షీ ధృతిః సపార్థ రాజసీ యయా స్వప్నం భయం శోకం విషాదం మదమేవ చ న విముంచంతి దుర్మేధా ధృతిః సపార్థ తామసీ సుఖం త్విదానీం త్రివిధం శృణు మే భరతృష అభ్యాసాద్రమతే యత్ర దుఃఖాంతం చానిగచ్చతి యత్తదగ్రే విషమివ పరిణామేయమృతోపమం తత్సుఖం సాత్వికం ప్రోక్తం ఆత్మబుద్ధి ప్రసాదజం విషయేంద్రియ సంయోగాత్ యత్తదగ్రేయమృతోపమం పరిణామే విషమివ తత్సుఖం రాజసం విస్మృతం యదగ్రే చ అనుబంధే చ సుఖం మోహనం ఆత్మనః నిద్రాలస్య ప్రమాదోత్థం తత్తామసం ఉదాహృతం న తదస్తి పృథివ్యాం వా దివి దేవేషు వా పునః సత్వం ప్రకృతిర్జైర్ముక్తం యదేభిః స్యాత్ త్రిభిర్గుణైః బ్రాహ్మణ క్షత్రియ విషాం శూద్రాణాం చ పరంతప కర్మాణి ప్రభవిక్తాని స్వభావ ప్రభవైర్గుణైః శమోదమస్తపః సౌచం శాంతిరాజమేవ చ జ్ఞానం విజ్ఞానమాస్తేక్యం బ్రహ్మకర్మ స్వభావజం शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यलायनं दानं ईश्वरभावश्च छात्रं कर्म स्वभावजं कृषि गौरक्षवाणिज्यं वैश्य कर्म स्वभावजं परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वकर्म निरतः सिद्धिं यथा विन्दन्ति तच्छृणु यतः प्रवृत्तिर्भूतानां येन सर्वं मिदं ततं स्वकर्मणा तमाभ्यर्च्य सिद्धिं विन्दति मानवः श्रेयां स्वधर्मो विगुणः परधर्मात् स्वानुष्ठितात् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भ हि दोषेण धूमेग्नाग्निरावृताः असक्त बुद्धे सर्वत्र जितात्मा विगति स्पृहा नैष्कर्म सिद्धिं परमां संन्यासेनाधिगच्छति सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन विषयां त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्त सेवी लघ्वाशी यत् वाक्कायमानसः ध्यान योग परो नित्यं वैराग्यं समुपाश्रितः अहंकारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य निर्ममः शांतो ब्रह्म भूयाय कल्पते ब्रह्म भूतः प्रसन्नात्मा न सोचते न कांक्षते समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यापाश्रयः मत्प्रसादातवाप्नोति शाश्वतं पदम् अव्ययम् चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि अथ चेत्त्वहमहङ्कारान् न शोष्यसि विनक्ष्यसि यदहङ्कारमाश्रित्य न योत्सिते मन्यसे मिथ्यैस व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यसि अवसोऽपि तत् ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया यायमं परमं गुह्यं मद्भक्ते स्वाभिधास्यति भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरो भुवि अद्धीष्यते च यैमं धर्म्यं संवादं मावयोः ज्ञान यज्ञेन तेनाम इष्टः स्यामिति मे मतिः। श्रद्धावान् अनसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम्। कच्चिरेतच्छ्रुतं पार्थ त्वयिकाग्रेण चेतसा कच्चिदज्ञानसम्मोहा प्रणष्टस्ते धनञ्जय। अर्जुन उवाच नष्टो मोहा स्मृतेर्लब्धा त्वत्प्रसादान् मयाच्युत स्थितोऽस्मि गत्सन्देह करिष्ये वचनं तव। संजय उवाच इत्यं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमं शौश्रुषम् अद्भुतं रोम हर्षणम्। व्यासप्रसादात् श्रुतवान् एतद् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयं। राजन् संस्मृत्य संस्मृत्य संवादमिमम् अद्भुतम् केशवार्जुननयोः पुण्यं श्यामि च मुहुर्मुहा। तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतम् हरेः विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः। यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतेर् निर्ध्रुवा नीतेर्मतेर्मम्। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः।